इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः नवदिल्ल्यां भारत मण्डपे विश्व रिक्थ समितेः षट्चत्वारिंशत्तमं सत्रम् उद्घाटितवान्। भारतम् इदं प्रथमतया विश्व रिक्थ समितेः उपवेशनम् आयोजयति। सम्बोधनावधौ प्रधानमन्त्री अवदत् यत् भारतं वैश्विक सहयोग संवर्धनाय रिक्थ संरक्षण प्रयासेषु स्थानीय समुदायाञ्च सम्मेलितुं प्रतिबद्धमस्ति। तेन उक्तं यत् भारतस्य रिक्थं न केवलम् ऐतिह्यम् अपि तु विज्ञानम् अपि अस्ति। श्रीमता मोदिना यूनेस्को विश्व रिक्थ केन्द्राय दशलक्ष डॉलर मुद्राणाम् अनुदानाय अपि घोषितम्। संसदः वित्त संकल्पना सत्रम् अद्य प्रभृति प्रारभते। सर्वकारेण ह्यः नवदिल्ल्यां वित्त संकल्पना सत्रात् पूर्वं सर्वदलीयोपवेशनमेकम् आकारितम्। सत्रे संसदः उभयोः सदनयोः सुचारुरूपेण कार्यसंचालनार्थं सर्वकारेण सर्वेभ्यः राजनैतिकदलेभ्यः सहयोगः याचितः। सभायाम् उपस्थितेषु नेतृषु केन्द्रीयः मन्त्री राजनाथ सिंहः, किरेन रिजिजुः, अर्जुन राम मेघवालः, जगत प्रकाश नड्डा, चिराग पासवानः, रामदास अठावले, कांग्रेसदलीयः नेता जयराम रमेशः, गौरवः गोगोईः, एनसीपी दलस्य नेता प्रफुल्ल पटेलः, डीएमके दलीयः नेता टी आर बालु, तिरुचि शिवा, आम आदमी पार्टीति दलस्य नेता संजय सिंहः, एआईएमआईएम सांसदः असदुद्दीन ओवैसी इत्यादयः अन्यतमाः आसन्। संसदीयः कार्यमन्त्री किरेन रिजिजुः उक्तवान् यत् सर्वकारः कमपि विषयम् अवलम्ब्य चर्चार्थं सज्जः वर्तते। बांग्लादेशस्य सर्वोच्चन्यायालयेन सर्वकारीयोद्योगेषु विवादास्पदम् आरक्षणं निरस्तीकृतम्। स्वस्य निर्णये न्यायालयेन आन्दोलनरताः छात्राः कक्षायां प्रत्यागन्तुम् आग्रहीताः। भारतीयर्तुविज्ञान विभागेन अनुमितं यत् गुजरातराज्ये पञ्चविंशति दिनांक पर्यन्तम् अतिवृष्टिः भविष्यति, अथ च उत्तराखण्डे अद्य इतोऽपि अतिवृष्टेः सम्भावना वर्तते। विभागेन सूचितं यत् पञ्चदिन पर्यन्तं कोंकण क्षेत्रेषु गोवायां, मध्यमहाराष्ट्रे, गुजराते, मध्यप्रदेशे च अतिवृष्टिः भविष्यति। छत्तीसगढ़े, कर्नाटकस्य बहुषु स्थानेषु अथ समुद्रीय तटेषु च अतिवृष्टेः पूर्वानुमानः अस्ति। केरल माहे मराठावाड़ा तटीयांध्रप्रदेश तेलंगानादिषु अपि अत्यधिक वृष्टिः सम्भाव्यते। अपरतः उत्तराखण्डे रुद्रप्रयागमण्डलस्य केदारनाथ यात्रामार्गे चिद्वासस्य समीपे ह्यः भूस्खलनेन त्रयः तीर्थयात्रिणः मृत्युम् उपगताः, पञ्च अन्ये च व्रणिताः जाताः। मृतेषु द्वौ महाराष्ट्रस्य, एकः स्थानीय निवासी च आसन्। सर्वे भक्ताः गौरीकुण्डतः केदारनाथं प्रति गच्छन्ति स्म। एनडीआरएफ, एसडीआरएफ, स्थानीयम् आरक्षिबलं च शीघ्रमेव आपदुद्धार कार्यं कृतवन्तः। मुख्यमन्त्री पुष्करसिंहधामी आहतानां कृते शोक संवेदनां प्रकटयन् व्रणितानां कृते विस्तृत चिकित्सा सेवा प्रदातव्या इति निर्दिष्टवान्। अन्ते क्रीडावार्तासु, महिलेशिया विंशति प्रतिविंशति क्रिकेट स्पर्धा मालिकायां श्रीलंकायाः अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे भारतीय दलेन संयुक्तारबामीरातदलम् 78 धावनांकैः पराजितम्। यूकी भाम्बरी अथ च फ्रांसदेशीयः अल्बानो ओलिवेटी स्विस ओपन टेनिस स्पर्धा श्रृंखलायाः पुरुष युगल वर्गीयं द्वन्द्वं जितवन्तौ। निर्णायके द्वन्द्वे एताभ्यां फ्रांसदेशस्य एव फैबिस मार्टिन युगो हम्बर्टयोः युगलं पराजितम् इति वार्ताः।